अथ श्री बिल्वाष्टकम् त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधं त्रिजन्म पापसंहारं बिल्वपत्रं शिवार्पणम् त्रिशाखैरबिल्वपत्रैश्च यच्छिद्रैः कोमलैः शुभैः शिवपूजां करिष्यामि बिल्वपत्रं शिवार्पणम् अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे शोध्यन्ति सर्वपापेभ्यो बिल्वपत्रं शिवार्पणम् शालिग्राम शिलामेकां विप्राणां जातु अर्पयेत् सोमयज्ञ महापुण्यम् बिल्वपत्रं शिवार्पणम् दन्तिकोटिसहस्राणि वाजपेयशतानि च कोटिकन्या महादानम् बिल्वपत्रं शिवार्पणम् लक्ष्म्याः स्तनत उत्पन्नम् महादेवस्य च प्रियम् बिल्ववृक्षं प्रयाच्छामि बिल्वपत्रं शिवार्पणम् दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् अघोरपापसंहारम् बिल्वपत्रं शिवार्पणम् मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे अग्रतः शिवरूपाय बिल्वपत्रं शिवार्पणम् बिल्वाष्टकमिदं पुण्यम् यः पठे शिवसन्निध सर्वपापविनिर्मुक्तः शिवलोकं वाप्नुयात् इति बिल्वाष्टकं सम्पूर्णम्।